एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। विपक्षी दलानां सांसदानाम् अवरोधस्य समाप्तिम् अनु प्रतिनिधिसभायाम् आगामिनः आर्थिक वर्षस्य कृते राजस्व व्यय च अनुमानितं वार्षिकं विवरणम् आधृत्य सामान्य विमर्शनं प्रारब्धम् वर्तते। उपवेशे अर्थमन्त्री डॉ सोनी मवागले स्वस्य वक्तव्येन सह विषयेऽस्मिन् विमर्शनस्य प्रारम्भम् भवतु इति प्रस्तावम् प्रस्तुतवान्। उपवेशे सभामुख डोल प्रसाद अर्याल राजस्व व्ययोः वार्षिकानुमानम् आधृत्य सैद्धान्तिकं विमर्शनमेव विधातव्यं, मन्त्रालयगत कार्यक्रमाणां योजनानां च विषये विनियोजन विधेयके विस्तृतं विमर्शनं भविष्यति, एतदर्थं घण्टाचतुष्टयात्मकः कालः निर्धारितोऽस्तीति असूचयत्। उपवेशे आगामिनः आर्थिक वर्षस्य कृते राजस्व व्ययोः अनुमानितं वार्षिकं विवरणम् आधृत्य विहितस्य विमर्शनस्य क्रमे सत्तापक्षस्य सांसदः देशस्य अर्थतन्त्रस्य समग्र समस्यायाः समाधानत्वेन आयव्ययिकं निर्मितमस्ति तेनश्चिन्वन्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे अर्थमन्त्री डॉ सोनी मवागले नेपाल राष्ट्रकोष सम्बद्धम् एतद् विक्रमवर्ष्यं तृतीय संशोधन विधेयकं प्रस्तुतवान्। उपवेशे विधेयकं प्रस्तुवन् अर्थमन्त्री वाग्ले नेपालस्य अर्थतन्त्रस्य सबल विकासाय सहयोग प्रापणस्य उद्देश्येन मूल्य शोधनान्तर स्थिरतां संस्थाप्य समग्र वित्तीय क्षेत्रे स्थायित्वं सुदृढं विधातुं विधिगत सुधारस्य आवश्यकत्वात् विधेयकमिदं निर्मितमस्ति इति स्पष्टीकृतवान्। एवमेव प्रतिनिधिसभायाः ह्यस्तनोपवेशेन राष्ट्रियसभायाम् उत्पन्नं गत विक्रमवर्ष्यं चलचित्र विधेयकं प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेषितं वर्तते। परराष्ट्रमन्त्रिणा शिशिर खनालेन प्रधानमन्त्रिणः बालेन्द्र शाहस्य विवादितायाः अभिव्यक्तिर्विषये प्रतिनिधिसभायां स्पष्टीकरणं प्रदाय प्रधानमन्त्रिणः अभिव्यक्तिः नेपाल भारतयोः दशगजात्मकस्य सीमाक्षेत्रस्य अतिक्रमणेन सीमक्षेत्रस्थ भूमेः भोगाधिकारेण सह सम्बद्धास्ति इति स्पष्टीकृतमस्ति। प्रतिनिधिसभायाः स्थनोपवेशे सभामुखेन सह समयं गृहीत्वा परराष्ट्रमन्त्री खनालः सीमसमस्यायाः समाधानस्य कृते नेपाल भारतयोः सीमा सम्बद्धेन समूहेन कार्यं विधीयमानमस्ति इति असूचयत्। सीमा सम्बद्धां समस्यां कौटनीतिकमाध्यमेन ऐतिहासिक तथ्यमाधृत्य मानचित्रस्य आधारेण च समाधातुं सर्वकारः प्रतिबद्धो स्थित्यतः विषयेऽस्मिन् भारतेन सह नैरन्तर्येण संवादः जायमानोऽस्तीति अभाषत। परराष्ट्रमन्त्री खनालः संसदि सम्प्रत्यैव आत्मना विहितस्य भारत भ्रमणस्य विषयं विज्ञापितवान्। प्रतिनिधिसभायाः उपवेशे परराष्ट्रमन्त्रिणः खनालस्य प्रत्युत्तर प्रदानस्य समये प्रतिपक्षी श्रम संस्कृति दलस्य सांसदः उत्थाय विरोधं प्रदर्शितवन्तः। प्रतिनिधिसभायां कार्यव्यवस्था परामर्श समितिः संघटिता अस्ति। सभामुखेन डोल प्रसाद अर्यालेन ह्यस्तनोपवेशे सभायाः त्रयोदशतमायाः नियमावल्याः अनुसारेण कार्यव्यवस्था समितौ सदस्याः मनोनीताः वर्तन्ते इति ज्ञापितम् आसीत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे नेपाली कांग्रेस दलस्य संसदीय दलस्य नेता भीष्मराज आङदेम्बे, नेकपा एमाले दलस्य संसदीय दलस्य नेता रामबहादुर थापा, नेपाली कम्युनिष्ट दलस्य प्रमेश हमालह, राष्ट्रिय प्रजातन्त्र दलस्य ज्ञानबहादुर शाही छ सीमा सुरक्षायाः विषये सुखियां धारणां व्यक्तवन्तः। प्रतिनिधिसभायाः अपरोपवेशः अद्य पूर्वाह्नस्य एकादशवादने वसति। प्रधानमन्त्रिणा बालेन्द्र शाहेन भारतस्य सर्वाधिक दीर्घकालं यावत् प्रधानमन्त्रीपदे विद्यमानाय सुसमकक्षिणे नरेन्द्र मोदी इत्यस्मै वर्धापन सन्देशः विज्ञापितो वर्तते। प्रधानमन्त्रिणा शाहेन ह्यसायं एक सामाजिक सञ्जालस्य माध्यमेन प्रधानमन्त्रिणः मोदिनः ऐतिहासिकोपलब्धिं प्रति शुभकामना सन्देशं विज्ञाप्य सुस्वास्थ्यस्य नैरन्तर्येण प्रगतेश्च कामनया सह भारतीय जनतायाः समृद्धेश्च शुभकामना व्यक्ता अस्ति। सहैव सन्देशे प्रधानमन्त्रिणा शाहेन देशद्वयस्य विद्यमान सम्बन्धं प्रति उच्चैः सम्मानं प्रकटय्य सम्बन्धं ममुम् अतिरिक्तं सुदृढं विधातुम् आत्मनः प्रयासः क्रियाशीलता च भविष्यति इति एक्स सामाजिक सञ्जाले उल्लिखितं वर्तते। अर्थमन्त्री डॉ सोनी मवागले संसदि आयव्ययकस्य प्रस्तुतेः पूर्वं सूचनास्यूतेः विषये सत्यता नास्ति इति उक्तवान् वर्तते। प्रतिनिधि सभाया अर्थ समिति उपवेश आगामीन आर्थिक वर्ष राजस्व व्यय आय व्ययक मुख्याया व्यवस्था विषय प्रत्युतर प्रदान क्रमे अर्थमंत्री डॉ वाग्ले प्रस्तावित कर सीम्नो विषय गोपनीयताया भंगा ज्येष्ठ मसस्य चतुर्दशी दिवसे बीवाईजी वैद्युत यानानि आनीतानीति उक्त्वा विहितः आरोपः निराधारोस्तीति प्रावोचत। मन्त्री डॉ वाग्ले आय व्ययक विवरणे समाविष्टः केचन विषयाः आर्थिक विधेयके नागतः इत्यतः विषयेऽस्मिन् संशोधनं विहितमस्तीति समस्पष्टयत्। उपवेशे समितिः सदस्यः लिमा अधिकारी संसदि प्रस्तुतम् आय व्ययकम् ऐतिहासिकं रूपान्तरणकारी चास्तीति चर्चयन्ति। अर्थमन्त्रिणः प्रत्युत्तरेण सर्वे विषयाः स्पष्टाः सम्भूताः सन्तीति उक्तवती। ऊर्जो जलस्रोत सेचन मन्त्रिणः विराज भक्त श्रेष्ठस्य समक्षम् वैद्युत विकास विभागात् क्रियान्वितानां जल विद्युत आयोजनया सम्बद्धानाम् अनुमति पत्राणां वर्तमानावस्थायाः प्रगतेः प्रभावकारितायाः च समीक्षां कर्तुं संघटितया उच्चस्तरीयया समित्या प्रतिवेदनं प्रस्तुतमस्ति। इति समाचारः।